अथ अष्टम स्कंध अथ प्रथम अध्याय मन्वंतरों का वर्णन। राजोवाच स्वायंभुवस्येह गुरो वंशोऽयं विस्तरात् श्रुतः यत्र विश्वसृजां सर्गो मनुन अन्यान् वदस्वनः यत्र यत्र हरेर्जन्म कर्माणि च महीयशः गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वतान् यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः कृतवान् कुरुते कर्ता यति तेन गतेद्य वा। ऋषिर्वाच मनोऽस्मिन् व्यतीतः षट्कल्पे स्वायम्भुवादयः अद्यस्ते कथितो यत्र देवादीनां च सम्भवः आकुत्यां देवहूत्यां च दहित्रस्तस्य वै मनः धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः कृतं पुरा भगवतः कपिलस्यानुवर्णितम् आख्यासे भगवान् यज्ञो यच्चकार कुरुद्वः विरक्तः कामभोगेषु शतरूपापतिः प्रभु विसृज्य राज्यं तपसे सभार्यो वनमाविशत्। सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् तप्यमानस्तपो घोरमिदमन्वाह भारत। मनुर्वाच येन चेतयते विश्वं विश्वं चेतयतेन यं यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेदसः आत्मा वास्यमिदं विश्वं यत्किञ्चि जगत्यां जगत् तेन त्यक्तेन भुञ्जीथा माग्रधः कस्य स्विद्धनम् यं न पश्यति पश्यन्तं चक्षुर्जस्य नरिष्यति तं भूतनिलयं देवं सुपर्णम् उपधावत। न जस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः विश्वस्यामुनिजर्जस्माद्विश्वं च तदृतं महत् स विश्वकायः पुरुहूतैषः सत्यः स्वयं ज्योतिरजः पुराणः धत्तेस्य जन्माद्यजयात् प्रशक्त्या तं विद्ययोदस्य निरीहयास्ते अथाग्रे ऋषयः कर्माणि हन्ते कर्महेतवे इह मानो हि पुरुषः प्रायो नीहं प्रपद्यते इहते भगवानीशो न हि तत्र विसज्जते आत्मलाभेन पूर्णार्थो नावसिद्धन्ति येन तम् तमीहमानम् निरहम् कृतम् बुधम् निराशिषम् पूर्णमनन्यचोदितम् नृन्शिक्षयन्तम् निजवर्त्म संस्थितम् प्रभुम् प्रपद्येऽखिलधर्मभावनम्। श्रीशुक उवाच इति मन्त्रोपनिषदम् व्याहरन्तम् समाहितम् दृष्ट्वा सुरा जातुधाना जग्धुमभ्यद्रवन् क्षुधा तांस्तथा वसितान् वीक्ष्य यज्ञः सर्वगतो हरिः यामहि परिवृतो देवैर्हत्वा शासत्रिविष्टपम्। स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् द्विमत्सुषेण रोचिष्मत्प्रमुखास्तस्य चात्मजः तत्रेन्द्रो रोचनस्त्वासीत् देवाश्च तुषितादयः ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ऋषेस्तु ब्रह्मशिरसस्तुषिता नाम पत्न्यभूत् तस्यां यज्ञे ततो देवो विभूरित्यभिश्रुतः अष्टाशीतिसहस्राणि मुनयोर्वै धृतव्रतः अनुशिक्षन् व्रतं तस्य कौमार ब्रह्मचारिणः तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः पवनः सृञ्जयो यज्ञहुत्राद्यास्तत्सुता नृप वसिष्ठतनया सप्त ऋषयः प्रमदादयः सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् धर्मस्य सुनृतायां तु भगवान् पुरुषोत्तमः सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह। सोनृतव्रतदुःशीलान् असतो यक्ष राक्षसान् भूतद्रुहो भूतगणांस्त्वबधित् सत्यजित् सखः चतुर्थ उत्तम भ्राता मनुर्नाम्ना च तामसः पृथुः ख्यातिर्नरः केतुरित्याद्या दशस्तत्सुतः सत्यका हरयो वीरा देवास्त्रीशिख ईश्वरः ज्योतिर्धामादय सप्त ऋषयस्तामस्यन्तरे देवा वैधृतयो नाम विधृते स्तनया नृप नष्टः कालेन जैर्वेदा विधृता स्वेन तेजसा तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्। राजोवाच बादरायण एतत्ते श्रोतुमिच्छामहे वयम् हरिर्यथा गजपतिम् ग्राहग्रस्तामुमुमुचत् तत्कथासु महत्पुण्यम् धन्यम् स्वस्तेनम् शुभम् यत्र यत्रोत्तम श्लोको भगवान् गीयते हरिः। सुत उवाच परीक्षितैवम् सतु बादरायणिः प्रायोपविष्टेन कथासु चोदितः उवाच विप्रः प्रतिनन्द्य पार्थिवम् मुदा मुनीनाम् सदसि स्म शृण्वताम्। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायाम् अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः।